इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः नरेन्द्रदत्त सेमवालः। आदौ मुख्यवार्ताः। केन्द्रीय मन्त्रिमण्डलेन प्रधानमन्त्री किसान सम्पदा योजनायाः कृते 20+5,600,000,000,000 रूप्यकाणां परिव्ययस्य अनुमोदनं कृतमस्ति। केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अकथयत् यत् सर्वकारः भारतीय वस्तुष् अमेरिकया प्रख्यापितस्य 25% शुल्कस्य प्रभावस्य आकलनं करोति। सहैव भारतस्य हिताय यथोचितं निर्णयाः स्वीकरिष्यन्ते। एनआईए इति विशिष्ट न्यायालयेन अद्य 2018 मालेगांव विस्फोट प्रकरणे भाजपादलस्य पूर्व सदस्य प्रज्ञा सिंह ठाकुर, लेफ्टिनेंट कर्नल प्रसाद पुरोहित, अन्ये च सर्वे 7 अभियुक्ता दोषमुक्ता कृता। ऋतु विज्ञान विभाग अद्य असम मेघालय प्रदेशयोः अत्यधिक वर्षायाः पूर्वानुमानं प्रकटीकृतवान्। अपि च लंदन नगरस्य ओवल क्रीडांगणे भारत इंग्लैंड दलयोर्मध्ये अन्तिमा टेस्ट क्रीडा प्रचलति। अथ वार्ताः विस्तरेण। केन्द्रीय मन्त्रिमण्डलेन 15वें वित्तायोग चक्रस्य कालखण्डे प्रचलितायाः प्रधानमन्त्री किसान सम्पदा योजना इति केन्द्रीय क्षेत्र योजनायाः कृते 20+9,00,000,000 रूप्यकाणां अतिरिक्त व्ययेन सह 20+5,600,000,000 रूप्यकाणां परिव्ययस्य अनुमोदनं कृतमस्ति।
अद्य कैबिनेट के फैसले में
भाषमाणः सूचना प्रसारण मंत्री अश्विनी वैष्णवः अवदत् यत् एकीकृत शीत श्रृंखला तथा मूल्य वर्धन अवसंरचनायाः अन्तर्गतं 50 बहुत्पाद खाद्य विकरण घटकानां स्थापनार्थं 1,000,00,000 रूप्यकाणां साहाय्यम् अनुमोदितम् अस्ति।
आज के इस कैबिनेट के फैसले में प्रधानमंत्री कृषि संपदा योजना का आउटले बढ़ा के 6,520 करोड़ किया गया और नए इरेडिएशन यूनिट्स और फूड टेस्टिंग लैब्स 50 इरेडिएशन यूनिट्स एंड 100 फूड टेस्टिंग लैब्स के लिए 1,000 करोड़ रुपीस का अलग से प्रावधान किया गया।
प्रधानमंत्री किसान सम्मान निधि इत्यस्याः योजनायाः 20वीं निधि कृषकेभ्यः शनिवासरं प्रदास्यते। अस्मिन् विषये कृषि कृषक कल्याण मन्त्रिणः शिवराज सिंह चौहान इत्यस्य आध्यक्ष्ये यः नवदिल्ल्यां उच्चस्तरीयोपवेशनम् अभवत्। सभायां कार्यक्रमस्य सज्जायाः समीक्षा कृता तथा च अधिकारिकेभ्यः कृषकेभ्यः योजनायाः अस्याः लाभः प्रयच्छेत् इति सुनिश्चितम् अभवत्। अस्य कार्यक्रमस्य शुभारम्भः उत्तरप्रदेशस्य वाराणसी जनपदे प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भविष्यति। सभायां श्रीचौहानः राष्ट्रिय राज्यमण्डल ग्रामस्तराणां कृषकान् अनेन कार्यक्रमेण सह योजयितुम् अधिकारिभ्यः निर्देशं दत्तवान्।
प्रधानमंत्री श्रीमान नरेंद्र मोदी जी 2 अगस्त को ठीक 11 बजे प्रधानमंत्री किसान सम्मान निधि की राशि आपके खाते में डालने वाले। इस अवसर पर वो जुड़कर आपसे बात भी करेंगे। कार्यक्रम आपके गांव में भी होगा, सभी कृषि विज्ञान केंद्रों पर होगा, आईसीआर के संस्थानों में होगा, एग्रीकल्चर यूनिवर्सिटीज में होगा, मंडियों में होगा, पैक्स के मुख्यालय पर होगा। और इसलिए मेरी आप सबसे प्रार्थना है, आप प्रधानमंत्री जी के किसी न किसी कार्यक्रम से जरूर जुड़िए।
बिहारे मतदातृ सूच्याः विशिष्ट गहन संशोधने चर्चायाः याचनाम् अधिकृत्य विपक्षिदलानां विरोध प्रदर्शनानन्तरम् अद्य द्वयोः सदनयोः कार्याचरणस्य स्थगनं बहुवारं संजातम्। लोकसभा द्विवारं, राज्यसभा च त्रिवारं स्थगिते जाते। अन्ते च एते पूर्णदिवसाय स्थगिते। द्वितीय स्थगनानन्तरं यदा लोकसभायाः उपवेशनं सायं 4 अभवत् तदा केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः अकथयत् यत् सर्वकारः भारतीय वस्तुष् अमेरिकया प्रख्यापितस्य 25% शुल्कस्य प्रभावस्य आकलनं करोति। सः प्रोक्तवान् यत् देशः राष्ट्रिय हितानां रक्षायै सर्वानपि आवश्यकान् पदक्षेपान् उत्थापयिष्यति। सहैव कृषकैः, उद्यमिभिः, उद्योगनिकायैः, सर्वैः हितधारकैः च सह परामर्शं करिष्यति। श्रीगोयलस्य वक्तव्यानन्तरम् अपि विरोध प्रदर्शनानि उद्दिश्य सदनं पूर्णदिवसाय स्थगितम् अभवत्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयम् कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। मुम्बय्याः एनआईए इति विशिष्ट न्यायालयेन अद्य 2018 मालेगांव विस्फोट प्रकरणे भाजपादलस्य पूर्व सदस्य प्रज्ञा सिंह ठाकुर, लेफ्टिनेंट कर्नल प्रसाद पुरोहित, अन्ये च सर्वे 7 अभियुक्ता दोषमुक्ता कृता। एनआईए इति विशिष्ट न्यायालय स्वकीय निर्णय अवदत् यत् अभियोजन पक्ष प्रकरणं निरूपयितुम् असफल अभवत् तथा च अभियुक्ता संशयस्य लाभाय योग्या सन्ति। न्यायालय अवदत् यत् यूएपीए इति असंवैधानिक क्रियाकलाप निवारण अधिनियमस्य उपबन्धा अस्मिन् प्रकरणे न उपयुज्यन्ते। न्यायालयेन महाराष्ट्र सर्वकाराय अपि निर्देशः दत्तः यत् मृतानां प्रत्येकस्मै परिवाराय 2 लक्ष रूप्यकाणां क्षतिपूर्ति राशिः प्रदातव्या, अपि च घटनायां मृणितेभ्य 50,000 रूप्यकाणां क्षतिपूर्ति राशिः दातव्या। अवधेयं यत् 2018 सितम्बर मासस्य 29 दिनांके मालेगांव इत्यत्र मस्जिदस्य समीपे मोटरसाइकिल यानेन बद्धस्य विस्फोटक यन्त्रस्य विस्फोटनेन 6 जनाः मारिताः, 95 जनाः च व्रणिताः अभवन्। वार्ताहरै सह वार्तां कुर्वन् अभियुक्तस्य अधिवक्ता रंजीत नायरः इत्यसौ अवदत् यत् अभियोजन पक्षः अभियुक्तस्य विरुद्धम् आरोपाणां निरूपणे असफलः अभवत्।
कोर्ट के सीधे से ऑब्जर्वेशन यह है कि आरोपी के खिलाफ सबूत नहीं दाखिल कर पाई प्रोसिक्यूशन, इस वजह से कोर्ट ने निर्दोष मुक्तता कर दिया है। हमारे पास किसी भी एक्यूज के पास में किसी भी बॉम्ब के ट्रेसेस नहीं रिकवर हुए।
उपसेनाध्यक्ष लेफ्टिनेंट जनरल एन एस राजा सुब्रमणी अद्य स्वकीयात् पदात् सेवानिवृत्त अभवत्। सेवावसानं प्राप्य सः 39 वर्षाणि यावत् विस्तृतं सुप्रसिद्धं सैन्यजीवनं चिह्नितम् अकरोत्। सैन्यगणवेशे श्रीसुब्रमण्यस्य विशिष्ट यात्रा राष्ट्रिय रक्षा अकादम्याम् आरब्धा। सः 85-अधिक-100तमे वर्षे दिसम्बर मासे द गढ़वाल रैफल्स इत्यस्मिन् नियुक्तः अभवत्। ऋतुविज्ञान विभागः अद्य असम मेघालय प्रदेशयोः अत्यधिक वर्षायाः पूर्वानुमानं प्रकटीकृतवान्। आगामिषु 6-7 दिवसेषु पूर्वोत्तर भारते प्रचण्ड वृष्टेः विभागेन नारंगवर्णीया संचेतना प्रदत्ता अस्ति। एतदतिरिच्य अद्य राजस्थानस्य उपरि प्रचण्ड वृष्ट्याः नारंगवर्णिकी संचेतना अपि प्रदत्ता अस्ति। आकाशवाणी समाचारः इत्यनेन सह वार्तालापं कुर्वन् विभागस्य वरिष्ठः वैज्ञानिकः आरके जेनामणि अवदत् यत् आगामिषु दिनेषु पूर्वोत्तर प्रदेशे तीव्रवृष्टिः भवितुम् अर्हति। राजस्थान मध्यप्रदेशयोः वर्षा श्वारभ्य न्यूनी भविष्यति।
Heavy to variable rainfall continuing mainly over Rajasthan, and we have issued orange color warning for Rajasthan mainly. The heavy rainfall activity will continue over Western Himalayan region on today and also next 3 days. Heavy rainfall will continue over Eastern India. In Delhi NCR, the light rainfall will continue actually, light to moderate, and then reduce from tomorrow onward.
अद्य राष्ट्रं स्वस्मै महते क्रान्तिकारिणे स्वातन्त्र्य योद्धृणे हुतात्मने उधमसिंह इत्यस्मै तस्य 80तमस्य बलिदान दिवसस्य अवसरे श्रद्धांजलिम् अर्पयति। प्रधानमन्त्री नरेन्द्रमोदी भारतमातुः अमरपुत्राय श्रद्धांजलिम् अयच्छत्। तस्य देशभक्तेः शौर्यस्य च कथाः देशवासिनां कृते सर्वदा प्रेरणास्रोतांसि भविष्यन्ति इति अपि अकथयत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना संयुक्त अरब अमीरात इत्यस्य राष्ट्रपतिना शेख मोहम्मद बिन जायद अल नाहयान इत्यनेन सह दूरभाष यन्त्रेण संवादः कृतः। एकस्मिन् वक्तव्ये प्रधानमन्त्री कार्यालयः अवदत् यत् उभौ नेतारौ भारत यूएई देशयोः मध्ये द्विपाक्षिक व्यापार सामरिक सहभागित्वस्य सुदृढीकरणाय परस्पर प्रतिबद्धतां पुनः सुदृढीकृतवन्तौ। सः अवदत् यत् तौ द्विपाक्षिक सहयोगस्य विविध क्षेत्रेषु कृतानां उल्लेखनीय प्रगतीनां सकारात्मक रूपेण मूल्यांकनं कृतवन्तौ, अपि च द्वयोः देशयोः जनानां परस्पर लाभाय सहयोगं विकसितुं सुदृढं कर्तुं च बलं प्रायच्छताम्। फिलीपीन्स देशस्य राष्ट्रपतिः फर्डिनेंड आर मार्कोस इत्येषः अगस्त मासस्य 4th दिनांकात् भारतस्य 5-दिवसीयायां राजकीय यात्रायां भविष्यति। मार्कोस इत्यनेन सह फिलीपीन्स देशस्य प्रथम महिला लुईस अरनेटा मार्कोस तथा च उच्चस्तरीय प्रतिनिधिमण्डलम् अपि आगमिष्यति, यस्मिन् मन्त्रिमण्डलस्य अनेके मन्त्रिणः वरिष्ठाधिकारिणी च भविष्यन्ति। क्रिकेट क्रीडायां भारतेन लंदनस्य ओवल क्रीडांगणे 5 क्रीडाभूतायाः एंडरसन तेंदुलकर टेस्ट श्रृंखलायाः अन्तिमस्य निर्णायक द्वन्द्वस्य प्रथम दिने इंग्लैंड दलं विरुध्य भोजनावकाशं यावत् द्वयोः क्रीडकयोः हानौ 270 धावनांकाः समर्जिताः। पूर्वं इंग्लैंड दलेन पणकं विजित्य क्षेत्ररक्षणस्य विकल्पः स्वीकृतः।